हे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाचेभिः वाजिनीवती दीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनु वाशन्तमया गिरिशम् ताभि चाकशी यामिषुम् गिरिशम् तहस्तेऽभि भस्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्च वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुंसुमनासत् अद्य वो जगदि वक्ता प्रथमो दैव्योऽभिषक् अहेगश्च सर्वाञ्जम्भयन् सर्वास्तयातु धाम्यः असौ यस्ताम्रो अरुण उत बभ्रस्तु मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षु श्रिता सहस्रशो वैशागुम् हेडयीमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपादृशन्नदृशन्नुदहाग्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधो ये अस्य तत्त्वानोऽहम् देभ्यो करम् नमः प्रमुञ्चधन्मनस्त्वमुभयोरात्नियोर्जाम् याश्च देहस्त इषवः पराता भगवो वपा अवतत्य धनुः स्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुका शिवो नः सुमना भव विज्यम् दनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आभुरस्य निषङ्गतिः या देहेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतत्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्मृणक्तु विश्वतः अतो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय త్రిపురాంధకాయ త్రిపురాంధకాయ త్రికాగ్నికారాయ కాళాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. సత్మింజరాయ త్రిషీమతే పథీనాం పతయే నమో నమో. బబ్లుజాయ వివ్యాధినేన్నానాం పతయే నమో నమో. హరికేశాయోపవీదినే పుష్టానాం పతయే నమో నమో. భవస్య హేత్యై జగతాం పతయే నమో నమో. రుద్రాయ తత క్షేత్రాణాం పతయే నమో నమః. సూతాయ హంద్యాయవనానాం పతయే నమో నమో. రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే వారివత్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృష్ణవేతాయ ధావతే సత్వనాం పతయే నమః. నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః. కగుభాయ నిషంగిణే సేనానాం పతయే నమో నమో. నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో. నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమ. శృకావిభ్యో జిగాగుంసభ్యోముష్ణతాం పతయే నమో నమో. శ్రీమద్భ్యో రక్తం జరద్భ్య ప్రకృంతానాం పతయే నమో నమ. ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ. ఇషుమద్భ్యో ధన్వావిభ్యశ్చ వో నమో నమ. ఆదన్వాని ప్రతిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్చభ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ. ఆసీనేభ్యశ్చ యానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ. తిష్టభ్యో ధావభ్యశ్చ వో నమో నమ. సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో. అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమః వ్యాధినీభ్యో వివిద్యంతీభ్యశ్చ వో నమో నమ. ఉగణాభ్యస్త్రిగుంహదీభ్యశ్చ వో నమో నమో. కృత్సేభ్యో కృత్సపతిభ్యశ్చ వో నమో నమో. ప్రాతేభ్యో ప్రాతపతిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో. రథిభ్యో రథేభ్యశ్చ వో నమో నమో. రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ. సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః. తక్షద్భ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమః ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ ప్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శివివిష్టాయ చ నమో మేడుష్టమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఓర్భ్యాయ చ వత్స్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ వగల్భాయ చ నమో జఘన్యాయ చ బుద్ధ్యాయ చ నమః సోభ్యాయ చ ప్రతిసద్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉత్పద్యాయ చ ఘల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురధాయ చ నమః శూరాయ చావవిందతే చ నమో వర్మిణే చ వరోధినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమః తీష్ణే చ వేచాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కూప్యాయ చ భట్యాయ చ నమో వర్ష్యాయ చ వశ్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఈగ్ర్యాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాత్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ ఋణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంద్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయో భవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థ్యాయ చ కూర్ధ్యాయ చ నమః పాద్యాయ చ వాద్యాయ చ నమః ततरणाय चोत्तरणाय च नमः ताद्याय च लाद्याय च नमः चष्ट्याय च भेम्याय च नमः त्रिकत्याय च प्रवाक्याय च नम इरिण्याय च प्रपत्याय च नम इगुं शिलाय च शयनाय च नम कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नम सल्प्याय च गेह्याय च नम काट्याय च गह्वरेष्टाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो वगुरमाणाय च विघ्नते च नमः आकिदते च प्रकिदते च नमो वक्किलिकेभ्यो देवानागं हृदयेभ्यो नमो विच्छिनकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नम आमेवत्केभ्यः द्रापे अन्धसत्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाभेषजे शिवा रुद्रस्य भेषजेतया नो मृडजीवसे इमागुं रुद्राय तवसे कपर्दिने क्षयद्वीराय परमरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम्भुश्चङ्ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयत्कृति क्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो मधे पितरम् मोद मातरम् प्रियामान तनुवो रुद्ररीरिषः मानस्तो केतन ये मान आयुषिमानो गोषुमानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो बधिर्हविष्मन्तो नमसा विधेमते आराते गोग्नमुद पूरुषग्ने शयद्वीराय सुम् नमस्मे ते अस्तु रक्षा च नो अधि च देव ब्रूयथा च न शर्म यच्च विबर्हाः स्तुहि श्रुतम् गर्तदम् युवानम् मृगन्न भीममुपहत्तुमुग्रम् मृडा च रुद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धुसेनाः परिणो रुद्रस्य हेतेर्विणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरा भगवद्यस्तनुष्वमीडुस्तोकाय तनयाय मृडया मीडुश्चमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृत्यम् वदा नमाचर पिनाकम् बिभ्रता गहि विकिरिल विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् मेदयोन्यमस्मन्निव बन्धुताः सहस्राणि सहस्रदा बाहुवोत्सव हेतयः सासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या ತೇಷಾಗುಂತಹತ್ರಯೋ ಜನೆ ವದನ್ಮಾನಿ ದನ್ಮಸಿ ಅಸ್ಮಿನ್ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೇ ಭವಾಧಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಗಂಧಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ತಸ್ಮಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾತಕ್ಕಪರ್ದಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ವಿಪದೋ ಜನಾನ್ ಯೇ ಪಥಾಂಬಧಿರಕ್ಷಯ ಐಲಭೃತಾಯ ವ್ಯುದಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತಿ ಶಿಖಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏತಾವಂತಶ್ಚ ಭೂಯಾಗುಂದಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ತಿರೇ ತೇಷಾಗುಂದಹತ್ರಯೋ ಜನೇ ವದನ್ವಾನಿ ದನ್ಮಸಿ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂದರಿಕ್ಷೇ ಯೇ ದಿವಿ ಯೇಷಾವನ್ನಂ ವಾತೋ ವರುಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣಾದಶ ಪ್ರತಿಚೇರ್ಗಶೋ ದೇಚೇರ್ಗಶೋರ್ಧ್ವಾತೇಭ್ಯೋ ನಮಸ್ತೆ ನೋ ಮೃಡಯಂತು ದೇಯಂ ದುಷ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷ್ಟಿತಂ ಭೋಜಂ ದಧಾಮಿ ತ್ರಿಂ ವರಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಮುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ಬಂಧನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೀಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ಸು ಯ ಓಷಧೀಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನಾವಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋ ಮರ್ತ್ಯಾಯ ಹಂತವೇ ತಾನ್ ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇತ್ ಸ್ವಾಹಾ ಮೃತ್ಯವೇತ್ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನೇನಾಪ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯರ್ಮೇ ಪಾಹಿ ತಮುಸ್ತು ಹಿಯಸ್ವಿಷುಸ್ವು ಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯ ದಿಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾಮಹೇಸೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಹೃದೇವಮಸುರಂ ದುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಶ ಜೋಯಗು ಶಿವಾಭಿಮರುಷಣಃ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅಗ್ನಾ ವಿಷ್ಣು ಸಜೋಷ ಸೇವಾ ವರ್ಧಂತು ವಾಂಗಿರಃ ಯುಮ್ನೈರ್ವಾಜೇ ವಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿತಿಶ್ಚ ಮೇ ಧೀತಿಶ್ಚ ಮೇ ಕ್ರತಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಅಪಾನಶ್ಚ ಮೇ ಧ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮಾನೇತಂ ಚ ಮೇ ವಾಕ್ಚ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮಓಜಶ್ಚ ಮೇ ಸಹಶ್ಚ ಮ ಆಯುಶ್ಚ ಮೇ ಜರಾ ಚ ಮ ಆತ್ಮ ಚ ಮೇ ತನೋಶ್ಚ ಮೇ ಶರ್ಮ ಚ ಮೇ ವರ್ಮ ಚ ಮೇ ಅಂಗಾನಿ ಚ ಮೇ ಸ್ಥಾನಿ ಚ ಮೇ ಪರೋಗುಂಷಿ ಚ ಮೇ ಶರೀರಾಣಿ ಚ ಮೇ ಜಯೇಶ್ಯಂ ಚ ಮಹಾಧಿಪತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾವಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇ ಭಶ್ಚ ಮೇ जेमा च मे महिमा च मे परिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयस्य मे पश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महस्य मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रचोश्च मे सीरं च मे लयश्च मर्तं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ऊर्ज मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्यश्च मे सपेतिश्च मे कृषिश्च मे भृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे शुच्च मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च मापश्च मे विरुधश्च मोषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवे च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ये च म आग्रयणश्च मे वैश्वदेवश्च मे भुवश्च मे वैश्वानरश्च मरुतग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे भर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धृषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतभृच्छ म आधवनीयश्च म आग्नेर्धम् च मे अविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मे अश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्तरिरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्य मे दित्यौरे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौरे च मे पष्टवाच्य मे पष्टौहे च म उक्षा च मे
ेहश्च मे नट्वाश्च मे धेनुश्च म आयुर्यज्ञेन कल्पता प्राणो यज्ञेन कल्पता अपानो यज्ञेन कल्पता
ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च
मे
त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे ष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे ष्टाचत्वारिगुंशच्च मे वाचश्च प्रसवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इरादेवहोर्मनुर्यज्ञने बृहस्पतिरुक्था मदानिशगुंसिषद्विश्वे देवासोक्तवाच पृथिविमा धर्मा मानिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमति देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तं मा देव अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः तच्छयो रावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्माणुषेभ्यः ऊर्ध्वं जिगातु भेषजं शण्णो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशेषः पुरुषः सहस्राक्षः सहस्रपात् स भूमिं विश्वतो कृत्वा अत्यधिष्ठद्दशाङ्गुलम् पुरुष एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् उदानृतत्वस्येषः यदन्येनातिरोहति एतावानस्य महिमा अथो ज्यायागस्य पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवे त्रिपादोद्भवदये पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वं व्यक्रामत् शासनादशने अभि तस्माद्विराड जायत विराजोऽधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म हिद्मः शरद्धविः सप्तास्यासन् परिदयः त्रिसप्तसमिध कृताः देवा यद्यज्ञम् तन्वानाः अवर्धन् पुरुषम् पशुम् तम् यज्ञम् वरिषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्त साद्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् పశోగుస్తాగుశ్చక్రే వాయవ్యాన ఆరణ్యాం గ్రామ్యాశ్చయే తస్మాజ్జ్ఞా సర్వభూతః రుచస్సామాని జగ్గిరే ఛందాగుంసి జగ్గిరే తస్మాత్ యదుస్తస్మాదజాయత తస్మాదశ్వా అజాయంత ఏకేజో భయాదతః గావోహ జగ్గిరే తస్మాత్ తస్మాజ్జాత అజావయః యత్పురుషం వ్యదదుః కతిధాభ్య కల్పయన్ ముఖం కిమస్య కౌ బాహో కావోరోపాదావుచ్యేతే బ్రాహ్మణోస్య ముఖమాసీత్ బాహురాజన్యకృతః ఊరో తదస్య యద్వైష్యః పద్భ్యాగుం శూద్ర అజాయత చంద్రమా మనసో జాతః చక్షో సూర్యో అజాయత ముఖాదింద్రశ్చాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్యా ఆసీదంతరిక్షం శేషౌర్యౌ సమవర్తత పద్భ్యాం భూమిర్దిశ శ్రోత్రాత్ తథా లోకాగుం అకల్పయన్ వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్య తీరః నామాని కృత్వా వివదన్యదాస్తే ధాతా పురస్తాత్య ముదా జహార శక్ర ప్రవిద్వాన్ రదిశశ్చ తస్సః తమేవం విద్వానమృతయవతి నాన్యపంథాయనాయ విద్యతే యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ తే హనాకం మహిమానః సజంతే యత్ర పూర్వే సాధ్యా సంతి దేవాః అభ్యః సంభూత పృథివ్యైరచాచ విశ్వకర్మణః సమవర్తతాదే తస్య త్వష్టా విదద్రూపమేది తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వానమృతయవతి నాన్యః పంథా విద్యతే యనాయ ప్రజాపతిశ్చరతి గర్భే అంధః అజాయమానో బహుధా విజాయతే తస్య ధీరాం పరిజానంతి యోనిం మరీచీలాం పదమిచ్ఛంతి వేధసః యో దేవేభ్యః తపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తద్బ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే తేశ్చ తే లక్ష్మేశ్చ పత్న్యో అహో రాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినో వ్యాత్తం ఇష్టం మనిషాణా అముం మనిషాణా సర్వం మనిషాణా తచ్చయ్యోరావృణీమహే గాతిం యజ్ఞాయ గాతిం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శన్నో అస్తు ద్విపదే శం చతుష్పదే
ॐ शान्ति 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 ॐ भद्रं कर्णे विष्णुयामदेवाः भद्रं पश्ये माक्षभिर्यजत्राः तिरैरङ्गैः सुष्ठुवागुंसस्तनूभिः यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ अथ सूर्या सर्वाङ्गिरसं व्याख्यास्यामः ब्रह्मा ऋषिः गायत्री छन्दः आदित्यो देवता हंसः सोऽहमग्निनारायणयुक्तम् बीजम् हृदेका शक्तिः वियदादिसर्गसंयुक्तम् कीलकम् चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः षट्स्वरारूढेन बीजेन षडङ्गम् रक्ताम्बुजसंस्थितम् सप्तास्वरदिनम् हिरण्यवर्णम् चतुर्भुजम् पद्मद्वयाभयवरदहस्तम् कालचक्रप्रणेतारम् श्रीसूर्यनारायणम् य एवम् वेद स वै ब्राह्मणः ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् सूर्य आत्मा जगतस्तत्तुषश्च सूर्याद्वै खल्विमानि भूतानि जायन्ते सूर्याद्यज्ञम् पर्जन्यो नमात्मा नमस्ते आदित्या त्वमेव प्रत्यक्षम् कर्मकर्तासि त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् विष्णुरसि त्वमेव प्रत्यक्षम् रुद्रोऽसि त्वमेव प्रत्यक्षम् मृगसि त्वमेव प्रत्यक्षम् यजुरसि त्वमेव प्रत्यक्षम् सामासि त्वमेव प्रत्यक्षमसर्वासि त्वमेव सर्वम् छन्दोऽसि आदित्याद्वायुर्जायते आदित्याद्भूमिर्जायते आदित्यापो जायन्ते आदित्याज्योतिर्जायते आदित्याद्व्योमदिशो जायन्ते आदित्याद्देवा जायन्ते आदित्याद्वेदा जायन्ते आदित्यो वा एष एतन्मण्डलम् दपति असावादित्यो ब्रह्म आदित्योऽन्तःकरणमनो बुद्धिचित्ताहङ्काराः आदित्यो वै व्यानसमानो दानोपानप्राणः आदित्यो वै श्रोत्रचक्षुरसनग्राणाः आदित्यो वै वाक्पाणिपादपायोपस्थाः आदित्यो वै शब्दस्पर्शरूपरसगन्धाः आदित्यो वै वचनादानगमनविसर्गानन्दाः आनन्दमयो विज्ञानमयो विज्ञानघन आदित्यः नमो मित्राय मानवे मृत्योर्मा पाहि राजिष्णवे विश्वहेतवे नमः सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु सूर्ये लयम् प्राप्नुवन्ति यः सूर्यः सोऽहमेव च चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः चक्षुर्धाता ददातु नः आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्य प्रचोदयात् सविता पुरस्तात् सविता पश्चात्तात् सवितोत्तरात् सविता धरात्तात् सविता नः सुवतु सर्वदा देवम् सविता नो रासताम् दीर्घमायुः ओमित्येकाक्षरम् ब्रह्म कृणिरिति द्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याष्टाक्षरो मनुः यत्सदाहरः जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात् प्रमुच्यते अलक्ष्मी नश्यते अवक्षभक्षणात् पूतो भवति अगम्यागमनात् पूतो भवति पतितसम्भाषणात् पूतो भवति असत्सम्भाषणात् पूतो भवति मध्याह्ने सूर्याभिमुखपठेत् सत्योत्पन्नपञ्चमहापातकात् प्रमुच्यते सैषा सावित्रीम् विद्यान न किञ्चिदपि न कस्मैश्चित्त संशयेत् य एताम् महाभागप्रातः पठति स भाग्यवान् जायते पशून् विन्दति वेदार्थम् लभते त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति हस्तादित्ये जपति स महामृत्यम् तरति स महामृत्यम् तरति य एवम् वेद इत्युपनिषत् भद्रम् कर्णे विशृणुयामदेवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः तुष्टु वा गुन्धस्तनोभिः यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अद ततः पुरुषो हवै नारायणो कामयत प्रजाश्रुचे येति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिराप पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतय प्रजायन्ते नारायणाद्वादशादित्या रुद्रा बसव सर्वाणि च छन्दाघुंसे नारायणाद्देवसमुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अधनित्यो नारायणः ब्रह्मा नारायणः शिवस्य नारायणः शक्रस्य नारायणः द्यावापृथिव्यौ च नारायणः कालस्य नारायणः दिशस्य नारायणः ऊर्ध्वस्य नारायणः अधस्य नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुम् सर्वम् यद्भूतं यच्छ भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् न एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ॐमित्यग्रे व्याहरेत् नमयति पश्चात् नारायणायेत्युपरिष्टात् ॐमित्येकाक्षरम् नमयति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एलद्वै नारायणस्याक्षरम् पदम् यो ह वै नारायणस्याक्षरम् फलमध्येति अनपब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम् राजकोशम् गौपत्यम् ततो मृतत्वमश्नुते ततो मृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्म पुरुषम् प्रणवत्स्वरूपम् अकार उकारमकार इति तानेकदा समभरत्तदेतदोमिति यमुक्त्वा मुच्यते योगे जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्मात्तदिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतत्तमेकम् नारायणम् कारणरूपमकारपरब्रह्मो एतदधर्वशिरो यो धीते प्रातरधियानो रात्रिकृतम् पापम् नाशयति सायमधियानो दिवसकृतम् पापम् नाशयति
माध्यम दिनमादित्याभिमुखो धीयान पञ्चपादकोपपादका प्रमुच्यते सर्ववेदपाराय पुण्यम् लभते नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत्
स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ
शान्ति शान्ति शान्तिः।